एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सभामुखः अग्निप्रसाद सापकोटा राष्ट्रियैकतया व्यावसायिक प्रवर्धने केन्द्रीभवितम् उद्योगी व्यवसायिनः अनुरोणाद्धि नेपाल चेम्बर अफ कमर्स संस्थायाः एकसप्ततितमस्य वार्षिकोत्सवस्य अवसरे ह्य आयोजिते कार्यक्रमे असौ जनताम् राष्ट्रम् च केन्द्रे निधाय व्यवसायम् प्रवर्धयितुम् बलम् प्रादात् असौ सुशासन स्थापनस्य भ्रष्टाचार नियन्त्रणस्य च प्रश्नः गहन विषयोस्तीति हेतोः अत्र निरन्तरम् क्रियाशीलैर्भाव्यमिति चर्चयन् अवोचत् सर्वेषाम् सम्बद्ध निकायानाम् पदाधिकारिणाम् आचरणे सुधारो विधातव्य पूर्वार्थ मन्त्रिभिः आर्थिक स्थायित्वाय विकासाय सुशासनाय च बलं प्रदातुं सर्वकारस्य ध्यानम् आकर्षितं वर्तते पूर्वेद्यः पत्रकार सम्मेलनम् आयोज्य पूर्वार्थ मन्त्रिणः विष्णुप्रसाद पौडेलः सुरेन्द्र पाण्डे डाक्टर युवराज खतिवडा च राष्ट्रस्य अर्थतन्त्रम् ह्रासावस्थातो रक्षितुं सर्वकारस्य ध्यानम् आकर्षयन् पत्रकार सम्मेलने देशे प्रदेय वित्तस्य सन्तुलनम् दुर्बलीभूतम् वैदेशिक व्यापार हानिः उल्लेख्य मात्रायां वर्धिता विद्यमान वित्तीयाभिलेखनहानि निर्गुणव्याभावावस्थायां च प्राप्त वैदेशिक मुद्रा संचिते ह्रासावस्थायां च वर्तते इति च वितर्क यथासमयं सच्चेष्टताम् अवलम्ब्य अर्थतन्त्रम् अतिरिक्त दुर्बलतातो रक्षितुं सर्वकारस्य ध्यानाकर्षणं विहितं वर्तते पत्रकार सम्मेलने नेकपा एमाले दलस्य उपाध्यक्ष पूर्वार्थमन्त्री च विष्णु पौडेलः अवोचत् वर्तमान सर्वकारेण अवलम्ब्यमानायाः आर्थिक नीतेः कारणेन अपि राष्ट्रस्य अर्थतन्त्रम् अतिरिक्तं दुर्बलायमानं वर्तते एमाले दलस्य उपाध्यक्ष पूर्वार्थमन्त्री च सुरेन्द्र पाण्डे राष्ट्रे वैदेशिक मुद्रायाः संचितौ ह्रासा आगतः व्यापार हानिः उल्लेख्य रूपेण वर्धित्येति च तर्कयन् अभासत आर्थिक तरलतायाः अभावस्य कारणेन संचित वित्तस्य अवस्था व्ययवर्धनस्य अवस्थायाञ्च नास्ति पूर्वार्थमन्त्री नेपाल राष्ट्रकोषस्य पूर्वादी शासकश्च डाक्टर युवराज खतिवडा अगदत् आर्थिक निकायेषु समन्वयाभावस्य अवस्थायां नैज क्षेत्रेण सह सर्वेभ्यः पक्षेभ्यः विश्वासं दापयित्वा संकटपूर्ण अवस्थातो राष्ट्रम् अग्रे वर्धयितुं सर्वकारेण गभीरेण प्रवर्तनीयम् अर्थमन्त्री जनार्दन शर्मा विप्रेषणस्य पर्यटनस्य च अभिवृद्धये प्रयासं विधातुं वैदेशिक नियोगानां प्रमुखान् निर्दिशति वैदेशिक नियोगानां प्रमुखै सह ह्य श्रव्यदृश्य प्रविधेर माध्यमेन आयोजिते उपवेशे अर्थमन्त्री शर्मा विप्रेषणस्य माध्यमेन वित्तं प्रेषयितुं तत्रत्य नागरिकेभ्य प्रोत्साहनं प्रदाय नेपाल कोविड उनविंशतेः प्रभावात् मुक्तोस्तीति सन्देशं प्रसार्य पर्यटन प्रवर्धनस्य विभिन्नान् कार्यक्रमान् आयोज्य च पर्यटकेषु नेपाल भ्रमणस्य वातावरणं स्रष्टुं निरदिशत् अर्थमन्त्री शर्मा अवोचत् वैदेशिक मुद्रां वर्धयितुं प्रदेय वित्तं सन्तुलनावस्थायां स्थापयितुञ्च सर्वकारः प्रयासरतो वर्तते इत्यतः सर्वैर्मिलित्वा कार्यं कर्तव्यम् अर्थमन्त्री शर्मा अवोचत् निवेश सम्मेलनानि आयोज्य नेपाले वैदेशिक निवेश वर्धनस्य वातावरणञ्च स्रष्टव्यम् वाणिज्य कोषाणां प्रमुख कार्यकारी अधिकृतानां छत्री संस्थया नेपाल बैंकर्स संघेन अत्यावश्यकीय तर वस्तुनाम एलसी नामधेयं प्रतितपत्रं न संचालयितुं निर्णीतं वर्तते गतदिने उपविष्टेन संघस्य उपवेशेन अत्यावश्यकीय तर वस्तुनाम प्रतितपत्रं न संचालयितुं निर्णीतमस्ति बैंकर्स संघस्य कार्यसमितेः सदस्यः नेपाल बैंक कोषागारस्य प्रमुख कार्यकारी अधिकृतस् कृष्णबहादुर अधिकारी उपवेशेन यान स्वर्ण रजत सहितानाम् अत्यावश्यकेतर वस्तुनाम् प्रतितपत्रम् तत्काल स्वीकृते न संचालयितुम् निर्णीतमिति अज्ञापयत् एतस्य अनुसारेण नेपाल राष्ट्र कोषागारस्य मौखिक निर्देशनानुरूपम् संघेन एतन् निर्णीतम् वर्तते संघेन नैजयान शर्करा मिष्टवटिका शुष्क फलोस पस्कर तम्बाकु बटिका मदिरा सज्जीकरण सामग्री सुगन्ध द्रव काष्ठ सामग्री चलभाषोपकरण प्रवृत्ति वस्तुनाम आयाताय प्रतितपत्रम् न संचालयितुम् निर्णीतम् वर्तते नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादी दलेन अध्यक्षस्य माधव कुमार नेपालस्य संयोजकत्वे एकादशाधिक 77,000 सदस्यीय मूल निर्वाचन परिचालन समिति संगठिता वर्तते। केन्द्रीय सचिवालयस्य उपवेशन आगामिनो वैशाख मासस्य त्रिंशे दिवसे सम्पत्स्यमानाय स्थानीय स्तराणाम निर्वाचनाय केन्द्रीय समितेः त्रयाणामेव केन्द्रीयायोगानाम् केन्द्रीय परामर्शदातृ परिषदः केन्द्रीय ज्येष्ठ वामपन्थी मञ्चस्य च सर्वेषाम् पदाधिकारिणाम् सदस्यानाम् च प्रदेशानाम् पदाधिकारी जनपदाध्यक्षाणाम् जनसंगठनानाम् केन्द्रीय पदाधिकारीणाम् च समावेशनत्वेन समितिरेषा संगठिता वर्तते। उपवेशन महासचिवस्य डा बेदुराम भूषालस्य संयोजकत्वे एकादश सदस्यीया निर्वाचन परिचालन केन्द्रीय सचिवालय संगठितो वर्तते। उद्योग वाणिज्यापूर्ति मन्त्री दिलेन्द्र प्रसाद बडु कथयति साधारणोपभोक्तृणाम् हितम् केन्द्रीकृत्य शिलातैलीय पदार्थानाम् मूल्यवृद्धिम् नियन्तुम् सहजापूर्तिम् विधातुम् परिवहन शुल्कम् व्यवस्थितम् कर्तुम् च विविधानाम् समस्यानाम् समाधानाय च सर्वकारः तत्परो वर्तते। शिलातैलीय पदार्थानाम् क्षेत्रे कार्यरतैः विभिन्न संगठनानाम् प्रतिनिधिभिः सह ह्यः सिंहप्रासादवर्तिनी उद्योग मन्त्रालये भाषमाणः मन्त्री बडु अवोचत् शिलातैलीय पदार्थानाम् क्षेत्रे विश्ववर्धमानस्य संकटस्य प्रभावः नेपालेऽपि वर्तते इत्यतः एतस्याः समस्यायाः वैज्ञानिक समाधानाय व्यवस्थापनाय च सर्वकारः गृहकार्यरतो वर्तते। असौ अगदत् उद्योगी व्यवसायीनाम् परिवहन कर्तृणाम् च समस्यानाम् समाधानाय सम्बोधनाय च सर्वकारः अनुकूलो वर्तते। गृहमन्त्री बालकृष्ण खाँड वदति सर्वकारेण निवेशस्य सुरक्षा विधीयते। नेपाल यातायात व्यवसायीनाम् क्षेत्रीय संगठनस्य नेपाल यातायात व्यवसायी राष्ट्रिय महासंघस्य षष्ठम् राष्ट्रिय महाधिवेशनम् ह्य उद्घाटयन् मन्त्री खाँड अवदत् कस्यापि व्यवसायस्य प्रोत्साहन संवर्धन सुरक्षाणाम् दायित्वम् सर्वकारस्य वर्तते। मन्त्री खाँड अकथयत् यान दुर्घटनानाम् कारणेन प्रतिवर्षम् सहस्रशो नागरिकाः म्रियमाणाः सन्ति हेतो दुर्घटनानाम् न्यूनीकरणाय यातायात क्षेत्रेण गभीरेण भाव्यम्। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः गदति प्रतिप्रदेशम् एकः चिकित्सा महाविद्यालय सर्वकारेण संस्थाप्यते। भरतपुर महानगरस्य शिक्षक नेतृत्वै सह ह्यः विहिते विमर्शने मन्त्री पौडेलः नेपालात् चिकित्सा शिक्षायै 98 अब्जानी रूप्यकाणि देशाद् बहिर्नीयमानानि सन्तीति कारणेन देशे एव चिकित्सा शिक्षायाः सहजरूपेण अध्यापनस्य वातावरणं स्रष्टुम् प्रतिप्रदेशम् एकस्य सर्वकारीय चिकित्सा महाविद्यालयस्य स्थापनाय कार्यम् विद्यमानमस्तीति ज्ञापितवान्। लमजुङ जनपदस्य गादी जलविद्युदायोजनाय विद्युत् राष्ट्रिय प्रसारण प्रणाल्यां संयोज्यते। निर्माण सम्पन्नानन्तरं मासद्वयावधौ अपि उत्पादिता 30 मेगावट परिमिता विद्युत् राष्ट्रिय प्रसारण प्रणाल्यां योजिता नासीत् इति समाचारः।